नमः सर्वेभ्यः। अद्य सिद्धान्तकौमुद्याः द्वन्द्वसमासप्रकरणे द्वितीयः पाठः, मे मासस्य चतुर्थः दिनाङ्कः। येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। द्वन्द्वसमासस्य कश्चन भागः अधीतः। तत्र द्वन्द्वसमासविधायकम् एकमेव सूत्रमस्ति, चार्थे द्वन्द्वः इति। च इत्यस्य अर्थे द्वन्द्वसमासः भवति इति तदर्थः। तत्र चार्थाः चत्वारः, समुच्चय अन्वाचय इतरेतरयोगसमाहाराः। समुच्चयः परस्पर असम्बद्धयोः द्वयोः प्रधानयोः मेलनम्। अन्वाचयस्तु एकं प्रधानम् एकम् आनुषङ्गिकं तादृशस्य। इतरेतरयोगः इत्यत्र द्वयोः युगपत् एकस्यां क्रियायाम् अन्वयः भवति। समाहारेऽपि तथैव, तत्र समूहः अर्थः भवति। एतेषु चतुर्षु अर्थेषु समुच्चय अन्वाचययोः समासः न भवति, वाक्ये व्यस्तः एव प्रयोगः। ईश्वरं गुरुं च भजस्व, ईश्वरं भजस्व गुरुं भजस्व इति उभयोः दे क्यारि इण्डिपेण्डेण्ट् मीनिङ्ग्स्, देर् इस् नो कनेक्शन् बिट्वीन् ईच् अदर्, सो देर् इस् नो समास। अन्वाचयः भिक्षामठ गां च आनय, भिक्षामठ इति प्रधानम्। तत्र यदि गौः दृश्यते तामपि आनय इति आनुषङ्गिकम्, तत्रापि समासः न भवति। अतः द्वन्द्वसमासः द्विविधः, इतरेतरयोगद्वन्द्वः, समाहारद्वन्द्वः। इतरेतरयोगे द्वयोः समानक्रियायां युगपदन्वयः भवति, सः विवक्षा इत्युच्यते। समाहारे समूहः अर्थः। इतरेतरयोगद्वन्द्वः यथा धवकदिरौ छिन्धि, धवं कदिरम् उभयमपि छिन्धि इत्यर्थः। एवं समाहारः पाणिपादम्, पाणि च पादौ च तेषां समाहारः इत्यादि उदाहरणानि। ततः द्वन्द्वे पूर्वनिपातस्य के नियमाः प्रश्नः। द्वन्द्वे घी इति एकं सूत्रम्, घिसंज्ञकम् अर्थात् इकारान्तम् उकारान्तं वा सखिवर्गं घिसंज्ञं भवति, तस्य पूर्वनिपातः भवति। यथा हरिहरौ, हरिश्च हरश्च अथवा हरिश्च हरश्च हरिश्च, उभयथापि विग्रहे हरिहरौ इत्येव समस्तं पदम्। हरिशब्दस्य घिसंज्ञा अस्ति इत्यतः पूर्वनिपातः। अजाद्यदन्तम्, यः शब्दः अजादिः अदन्तः, अदन्तः नाम ह्रस्वकारान्तः, यथा इन्द्रः इति अश्वः इत्यादयः, तेषां पूर्वनिपातः भवति। यथा इन्द्रश्च अग्निश्च इति स्थिते इन्द्राग्नी इत्येव भवति। अल्पाच्तरम् इति अग्रिमं सूत्रम्, यत्र अल्पाः अचः, अल्पसङ्ख्याकाः अचः नाम स्वराः भवन्ति, तस्य पूर्वनिपातः। यथा ग्रीष्मश्च वसन्तश्च इत्यस्य चेत् ग्रीष्मवसन्तौ इति भवति। ग्रीष्म इत्यत्र अच्द्वयं, वसन्त इत्यत्र अच्त्रयम्, अच्द्वयम् अल्पास्तरं यः यत् पदम् अर्थात् ग्रीष्म इति पदं, तस्य पूर्वनिपातः। ततः सूत्रमस्ति राजदन्तादिषु परम्, राजदन्तादिशब्दाः तस्मिन् गणे ये शब्दाः पठिताः तत्र यत् पूर्वनिपात पूर्वप्रयोगार्हं तत् परं भवति इत्यादि। इति इट्स् अ जस्ट् कलेक्शन् आफ् वर्ड्स् विच् डु नाट् ओबे द जनरल् पूर्वनिपात रूल्स्। अलाङ्ग् वित् ईस् देर् आर् अ फ्यू अदर् वार्तिकर्स्, लैक् इफ् यु हेव् ऋतु आर् नक्षत्र इट् विल् बि इन् द आर्डर् आफ् देर् अनुभवी क्रमेण अभ्यर्हितं, दट् विच् इस् मोर् एक्स्पेक्टेड् शुड् कम् फर्स्ट् एट्सेट्रा। सो दीस् आल् कम् अण्डर् द पूर्वनिपात नियमाः। द्वन्द्वे एते अपि नियमाः गतकक्षायाम् अधीताः. अग्रे समाहारद्वन्द्वविषये भवति. वस्तुतः सर्वत्र इतरेतरयोगोपि भवितुमर्हति, समाहारोपि भवितुमर्हति. एज अ जनरल् रूल् एनिवेर् यू केन् हाव् बोत् इतरेतरयोग एण्ड् समाहार डिपेण्डिङ्ग् आन् दि विवक्षा. If you intend them as separate individuals, it will be itaretara yoga. If it is intended as a group, it will be samahara. But there are certain cases where samahara dvandva is made compulsory. Samahara dvandva eva bhavet iti niyamah kriyate. Tani sutrani upchente. Itha dvandvascha prani turya senangana. प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां द्वन्द्वः एकवत् भवति, नाम समाहारः एव भवति इत्यर्थः. यथा पाणी च पादौ च समाहारः पाणिपादम् इत्येव, पाणिपादाः इति न भवति. तूर्याणि नाम वाद्यानि, यथा मार्दङ्गिकाश्च पाणविकाश्च मार्दङ्गिकपाणविकम् इति. सेनाङ्गाः अश्वाश्च रथाश्च अश्वरथम् इति वा रथाश्वम् इति वा भवति, अश्वरथम् इत्येव. अजाद्यदन्तत्वात् पूर्वनिपातः इत्यादि. अनुवादे चरणानां, चरणाः नाम शाखाध्येतृवाचिनः. तत्र अनुवादे पूर्वं निर्दिष्टः यः सङ्केतः, तस्य अनुवादे समाहारद्वन्द्वः नित्यं भवति. कठकालापम् इत्यादि उदाहरणानि दृष्टानि. अध्वर्युक्रतुः अनपुंसकम्. अध्वर्युक्रतुः नाम यजुर्वेदे विहिताः ये यज्ञाः, तेषां समाहारद्वन्द्व एव भवति. अनपुंसकम् यदि अक्लीबम् अर्थात् नपुंसकलिङ्गे न भवतः तदा. ततः अध्ययनतः अविप्रकृष्टाख्यानाम्, अध्ययनक्रमः अस्ति. संहिता पदः पदं क्रमः इत्यादि, संहिता पदं क्रमः, अनन्तरं जटा इत्यादि. तत्र अविप्रकृष्ट समीपे ये सन्ति अर्थात् इदानीं पदक्रम इति सन्निहितौ अध्ययनक्रमे, तत्र तदध्येतॄणां द्वन्द्वः समाहार एव भवति. पदकक्रमकम् इति उदाहरणं दृष्टम्. जातिः अप्राणिनां, जातिवाचकशब्दाः अप्राणिनां, प्राणिभिन्नजातिवाचकानां द्वन्द्वः सर्वदा समाहार एव भवति. विशिष्टलिङ्गो नदीदेशो ग्रामः, भिन्नलिङ्गे वर्तमानौ नदीवाचकौ अथवा देशवाचकौ, यथा नदी नदनदी, गङ्गा च शोणश्च. गङ्गा इति स्त्रीलिङ्गे, शोण इति पुल्लिङ्गे, तयोः समाहारः समाहार एव भवति गङ्गाशोणम् इति. एवं देशवाचिनामपि. क्षुद्रजन्तवः, ये क्षुद्रजन्तवः लोलि अनिमल्स्, तेषां समाहार एव भवति सर्वदा. युकालिक्षम् इत्यादि. येषां च विरोधः शाश्वतिकः, ययोः द्वयोः परस्परं नैसर्गिकः विरोधः विद्यते. देर् इस् अ नेचुरल् अण्ड् पर्मनेण्ट् एनिमिटि बिट्वीन् टु जनरलि जातीस्, लैक् से काका अण्ड् उलूका, कौस् अण्ड् औल्, क्रोस् अण्ड् औल्स्, काकोलूकम् इत्यत्र समाहार एव भवति. एवं गोव्याघ्रम् किमपि यद्यदस्ति तत्सर्वम्. शूद्राणाम् अनिरवसितानां, शूद्रजातीनां प्रयोगे ये अनिरवसिताः अबहिष्कृताः, तेषां समाहारः अपि नित्यम् एकवद् भवति. गवाश्वप्रभृतीनि च, गवाश्वप्रभृतिगणे ये शब्दाः पठिताः ते यथोच्चारितानि साधवः, यथा यथा गणे उच्यन्ते तथा साधूनि भवन्ति इत्युच्यते. अन्तिमं विभाषा वृक्ष मृग तृण धान्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तराणां, एतेषां द्वन्द्वः विकल्पेन समाहारः अर्थात् समाहारोऽपि भवति इतरेतरयोगोऽपि भवति. किमर्थं विशिष्य उच्यते? अन्यैः सूत्रैः नित्यं समाहारे प्राप्ते अनेन विकल्प्यते, अथवा अन्यैः सूत्रैः समाहारनिषेधे प्राप्ते अनेन विकल्प्यते. सर्वथा उभयं भवति इत्यर्थः. वृक्ष मृग इत्यादीनां द्वन्द्वे एतावदधीतमासीत्. अस्मिन् प्रकरणे इतोपि कानिचन सूत्राणि सन्ति. ततः पूर्वं कश्चन प्रश्नः आसीत् गतवर्षे 2003 प्रश्नपत्रे द्वन्द्वसमासः इति पञ्चदशाङ्कानाम् एकः प्रश्नः अस्ति इति. तत्र एवमेव यथा अद्य पुनरावर्तने दर्शितं तथा सब् हेडिङ्ग्स् कृत्वा, अर्थात् आदौ द्वन्द्वसमासविधानं, समासे पूर्वनिपातः, समाहारद्वन्द्वः इति कृत्वा तत्तत् प्रकरणस्थानि सूत्राणि लेख्यानि भवन्ति. अट् लीस्ट् इन् ब्रीफ् यु विल् हाव् टु मेक् ए मेन्शन् आफ् एव्रिथिङ्ग्. द फस्ट् वन् ओब्वियस्लि इन् डीटेल् चार्थे द्वन्द्वः, एण्ड् देन् पूर्वनिपात यु केन् जस्ट् लिस्ट् द सूत्रास् एण्ड् लिस्ट् द जनरल् नियमास् वित् जस्ट् वन् एक्साम्पल्. And again, if you have samahara dvandva, just list these rules. I mean, even if you don't remember everything, at least quite a bit, because there is quite a bit, at least 7 or 8 sutras of samahara dvandva, at least the main ones, like you have the pranituriya senanganam, jatira praninam, and eshamcha virodha shashvatikaha. All these mention with one example each. Okay, and then there is something else which we'll study today. So make them as subprakaranas and give, and everywhere, I mean, I feel in a samasa, examples are most important. For anything you say, if you give an example, it means you're showing that you have understood it. So continuing with the samahara dvandva, विभाष इति अनुवर्तते. विप्रतिषिद्धञ्च अनधिकरणमाचि इति अग्रिमं सूत्रम्. एकवचनम् इति अनुवर्तते द्वन्द्वः इति. विभाषा वृक्षमृग इत्यतः विभाषा इत्यपि अनुवर्तते. विरुद्धार्थानाम् अद्रव्यवाचिनां द्वन्द्वः एकवद् वा स्यात्. अद्रव्यवाचिनां, द्रव्यं न भवेत् अर्थात् गुणः क्रिया वा, विरुद्धार्थाः यत्र भवन्ति तेषां विकल्पेन समाहारः भवति. यथा शीतोष्णम्, शीतोष्णे, हाट् एण्ड् कोल्ड्, शीतोष्णम् अथवा शीतोष्णे, उभयथापि भवति इत्यर्थः. सो वैकल्पिकः, किमर्थमिदं सूत्रम् इति प्रश्नः. यथा मया उक्तं, सर्वत्र द्वन्द्वः समाहारोऽपि भवितुमर्हति, इतरेतरयोगोऽपि भवितुमर्हति. किमर्थमिदं सूत्रम् इति चेत्, वैकल्पिकः समाहारद्वन्द्वः चार्थे द्वन्द्वः इति सूत्रेण प्राप्तः. सः विरुद्धार्थानां यदि भवति तर्हि अद्रव्यवाचिनामेव इति नियमार्थमिदम्. इफ् वि आर् कम्बैनिङ्ग् टु अपोसिङ्ग् थिङ्ग्स् इन् द्वन्द्व, इट् केन् बि समाहारद्वन्द्व ओन्लि इफ् इट् इस् अनधिकरणवाचि. इफ् इट् इस् नाट् अ द्रव्य, इफ् इट् इस् अ द्रव्य, वि के नाट् हाव् समाहार. For example, if you have something like tena dravyavachinam itaretara yogah eva, shitoshne udake staha. So shitoshne in the first case, shitoshnam or shitoshne refers just to the quality, that's the cold and hot. Okay? It does not refer to a particular thing which is cold or hot. So if you are saying there is hot water and there is cold water, shitoshne udake staha, तत्र द्रव्यवाचकत्वम् अस्ति. देर् इट् रेफर्स् टु अ पर्टिक्युलर् मेटीरियल् थिङ्ग्. तत्र समाहारः न भवति, द्रव्यवाचित्वात् समाहारः न भवति, केवलः इतरेतरयोग एव. विप्रतिषिद्धं किम्? परस्परविरुद्धं भवेत् इति अर्थं. नन्दकपाञ्चजन्यौ इत्यस्ति. सो नन्दकम् अण्ड् पाञ्चजन्यम्. नन्दकम् इति विष्णोः, भगवतः खड्गस्य नाम, पाञ्चजन्यः इति तस्यैव शङ्खः. अतः विप्रतिषिद्धौ न, दे केन् स्टे इन् द सेम् प्लेस्, दे स्टे वित् द सेम् पर्सन्, देर् फोर् दे आर् नाट् विप्रतिषिद्ध. अत्र पाक्षिकः समाहारद्वन्द्वः भवत्येव. यत्र विप्रतिषिद्धयोः द्वन्द्वः तत्र अद्रव्यवाचिनामेव समाहारः इत्युच्यते. यत्र विप्रतिषेधः नास्ति तत्र द्रव्यवाचिनामपि समाहारद्वन्द्वः भवति. नन्दक एण्ड् पञ्चजन्य आर् बोथ् द्रव्यास्, वन् इस् अ खड्ग एण्ड् अदर् इस् अ शङ्ख. सो इवन् इफ् दे आर् द्रव्यास्, सिन्स् दे आर् नाट् विप्रतिषेध, वि केन् स्टिल् हाव् बोत् इतर इतर योग एण्ड् समाहार. ओन्लि इफ् इट् इस् विप्रतिषेध, यदि विप्रतिषिद्धं तर्हि द्रव्यवाचिनोः समाहारः न भवति, अद्रव्यवाचिनोरेव समाहारः भवति. अग्रिमं सूत्रमस्ति न दधिपय आदीनि. एकवचनम् इत्येन वर्तते, द्वन्द्वः इत्येन वर्तते, एतानि न एकवत् स्युः, समाहारद्वन्द्वः निषिध्यते, एकवद्भावः अर्थात् समाहारः न भवति. एतेषां गणः, दिस् इस् अ क्लास् आफ् वर्ड्स्, सो फर् वर्ड्स् विच् आर् इन्क्लूडेड् अण्डर् दिस् गण देर् इस् नो समाहार एट् आल्, दे आल्वेस् हेव् टु बि कम्पल्सरिली इतरेतर योग. दधि पयसि, दधि च पयश्च अस्ति. सो बोत् आफ् दीस् आर् व्यञ्जन, right, those which are used for anna samskarana. So vibhasha vriksham mruga trina dhanya vyanjana ityanena vaikalpikaha samahara dvandvaha praptaha anena nishidhyate, dadhipayasi ityatra samaharaha na bhavati, itaretara yogaha eva. Vibhasha vriksham mruga iti praptaha vikalpaha vadhyate. Idhma barshihi, idhmancha barshishcha. Idmam is fuel and barhi is fire. Fuel and fire. Itarthe samaharaha na bhavati itaretara yoga eva. Nipatana dirghaha. Vastutaha idma iteva shabdaha. Idma iti dirghaha. Gane nipatanat. Since it is ready made, even in that form in the gana, we have the dirgha. Rukhsame. Rukhcha samacha. So, the Ruk is the mantras of Rigveda, Sama is the mantras of Samaveda. Vang manase, Vakcha manascha, Vang manase. So in both these cases there is also a Samasanta. Okay, so we studied this, I think, Achatura, Vichatura, etc. Ruk, Sama, Vang manasa, Saman shabdaha, Tata Samasantaha Ach bhavati, Tena Akarantaha bhavati, Ruk Sama, Ruk Same, Ruk Samani. Evam, Vang manasaha, वाङ्मनसं वाङ्मनसे वाङ्मनसानि इति. अधिकरण एतावत्त्वे च पदद्वयमस्ति, न दधिपयादीनि इत्यतः न इत्यनु वर्तते भवति. द्वन्द्व द्रव्यसङ्ख्यावगमे एकवदेव इति नियमः न स्यात्. सो इफ् इट् इस् something which specifies the number of dravya, okay, number of things, then there is the previous set rules for samahara dvandva will not apply. We studied many rules where samahara dvandva was compulsory. Now among that, if there is a specific mention of the number of things, then there is no compulsory samahara dvandva. Ekavadeva iti niyamaha nasyat. Dasha dantoshthaha. Dantashta oshthaucha, teeth and lips. So now, dvandvascha pranituriya senanganam ityanena nityam samahare prapte anena nishidhyate. Nitya samaharaha nishidhyate. It prevents compulsory samahara, which means you can have both samahara and itaretara yoga. It can be dantoshtham or dantoshte. Vibhasha samite, the same thing, adhikarana itavatve. अधिकरणायितावत्तस्य सामीप्येन परिच्छेदे, सो वेन् दट् इस् असोसियेटेड् वित् सामीप्य, समाहारः एव इत्येवं रूपः नियमः वा स्यात्. ऐम् सारी, ऐ थिङ्क् ऐ मेड् अ मिस्टेक्. द प्रीवियस् केस् there is no samahara at all, it has to be compulsorily itaretara yoga, the dashadantoshtha. Here it is optional. Vibhasha samipe itanena vikalpena kriyate, ataha upadasham, dashanam samipe ye santi. It is not a correct number. It is not exactly 10, it is nearer to 10. It can be either 9 or 11. So, tada vikalpena bhavati, arthat vikalpena samaharaha, tada bhave itaretara yogaha, ubhayam api bhavitum arhati. Okay, so that is the end of samahara dvandva prakarana. That is cases where samahara dvandva is made compulsory or is prevented. So agrimam upaprakaranam dvandva samasa prakarane yatra samasashraya karyam bhavati. Dvandva samasam ashritya kanichana karyani bhavanti. Tatra prathamam asti anangrito dvandve. Trini padani santi anang rutaha dvandve. Aluguttarapade ityataha uttarapade ityadhikaraha. Sat uttarapade pare purvavase karyam bhavati. Rito vidyayoni sambandhebhyaha ityataha vidyayoni sambandhebhyaha iti anuvartate. Vidyayoni sambandhamachinam rudantanam dvandve anang syat uttarapade pare. So when we are doing a dvandva of ridantaha, hraswarkarantas, uttarapade pare, when followed by the uttarapada, the previous one will get anang as the adesha. Okay, anang is an adesha. Nitvata nichayatyanena antyasya adesha bhavati. Arthat rukarasya sthane an iti adesha bhavati. Kesham ridantana vidyayoni sambandha of things which are related to each other either through vidya, through learning, or through yoni, or by birth. Okay. So, tatra anang bhavati. Hota potarau ityasti. Hota cha, pota cha iti vigraha. Hotru and potru are both priests. Okay. There are certain sacrifices like the Somayaga where there are 16 officiating priests who are told. Generally for any yaga there are 4. Okay. Advaryu, Brahma, Advaryu, Hotra and Udgatra. 4 people related to the 4 different Vedas. Hotra is the Rigveda. Advaryu is the Yajurveda, Udgata is the Samaveda, and Brahman is the Atharvaveda. So there are 4 priests from the 4 Vedas. In particular special sacrifices, there are more priests, up to 16 priests. So Hotru is the Rigvedic priest and Potru is one of those other officiating priests. They are related to each other through their learning. Okay. Vidya Dvaraka. Eka yajna ritviktva krutaha sambandhaha. What is the relation between these two? Eka yajna ritviktvam. They are both priests in the same yajna. Vidya dvaraka. Because of their vidya. I mean, they are appointed as those priests only because of what they have learnt. Okay, so there is a vidya sambandha. Hotru and potru are both rukarantas. Tata prakriya evam bhavati. Hotru, it is not au, sorry, this is again su. Sorry, it's a typing error. Hotru, su, potru, su. Hotacha, potacha. Iti. Charthe dvandvaha ityanena dvandva samasaha. Supodhatu pratipatika yoho ityanena subluki. Hotru, potru. Istyasti. Anangrito dvandve ityanena uttarapade pare purvasya anang. Rukarasya sthane anu iti adeshaha. Hotan, potru. Tataha nalopah pratipadikadrasya ityanena nakarasya lope hota potru iti bhavati. Tatra dvivachanam, because there are two, it is dvivachana, so just ityanena. Tatra ratongi sam namasthana yoho ityanena gunaha bhavati. This is generally how you derive, say, dhatarau. You have dhatra and au. There is guna by ratongi sarvanamasthana yohu. And then there is upadhadilgha by aptrantrich. You can see potru on the list. So there is this upadhadilgha. So it becomes hota potarau. So this is the prakriya. The key point here is anang rato dvandve ityanena uttarapade pare anang iti adeshah bhavati. Hotru potru neshto dvataraha iti agrivam udaharam. హోతాచ కోతాచ నేష్టాచ ఉద్గాతాచ. సో అగైన్ ఆల్ ఆఫ్ దీస్ ఆర్ ప్రీస్ట్స్. ఉత్తర పదే పరే ఆనంగ విధానాత్. వాట్ హ్యాపన్స్ వెన్ యూఆర్ కంబైనింగ్ మెనీ డిఫరెంట్ వర్డ్స్ ఇన్ ద్వంద్వ? దిస్ ఇస్ ఉత్తర పదే పరే. సిన్స్ దర్ ఇస్ ఉత్తర పదాధికార, ద ఆనంగ్ విల్ ఆపరేట్ ఓన్లీ వెన్ ఫాలోడ్ బై ద ఉత్తర పద, విచ్ మీన్స్ ద పెనల్టిమేట్ వన్. ఉపాంత్యస్యైవ ఆనంగ్ భవతి. బహూనాం ద్వంద్వే ఉపాంత్యస్య, దట్ విచ్ ఇస్ ఇమీడియట్లీ ప్రిసీడింగ్ ద ఉత్తర పద, విల్ గెట్ ఆనంగ్. సో ఇట్ బికమ్స్ నేష్టోద్గాతారః, నేష్టా ఉద్గాతారః. హోతృ పోతృ ఇత్యేతయోః ఆనంగ్ నభవతి. కింతు అత్రైవ ఇది మాతాపితరౌ ఇత్యస్తి, ఇదం తు విద్యావచనం తదపూర్వం తత్ర కిం then only the penultimate one will get anang. Mata pitarau iti agrimam, mata cha pita cha. So this is a yoni sambandha. Vidya yoni sambandhe vyaha iti uktam. Purvam meduktam sa vidya sambandha, atra yoni sambandha. Ataha mata pitarau, matru pitru tisthite, matru ityasya anang bhavati. పుత్రే అన్యతరస్యాం ఇత్యతః మండూక ప్లత్య పుత్రే ఇత్యనువృత్తేః పితాపుత్రౌ. పితాపుత్రౌ ఇతి ప్రయోగః దృశ్యతే, కింతు తత్ర రుదంతానాం ద్వంద్వః న. పితృ ఇతి రుదంతం, పుత్ర ఇతి న రుదంతం. అతః ఆనంగః ప్రాప్తిః నాస్తి. యాక్చువల్లీ వి డు నాట్ హావ్ ఆనంద్ దేర్, కింతు పూర్వసూత్రమస్తి పుత్రే అన్యతరస్యాం ఇతి. తతః పుత్రే ఇతి అనువర్తతే మండూక ప్లత్య. Manduka Plati is a type of anuvritti where the anuvritti skips some sutras in between, right? So if you look at the number of Anangruta Dvandve, it is 25 or something. It is 6325, right? Now this was 6322. So from there we are taking that putre, but it does not come to 23 and 24. The anuvritti directly jumps to 25 because we require it. సో మండూకప్లుత్యా పుత్రే ఇత్యనువృత్తేః పుత్రశబ్దే పరే అపి ఆనంగ్ భవతి పితాపుత్రౌ ఇతి ప్రయోగః సాధుః. దేవతాద్వంద్వే చ ఇది అగ్రిమం సూత్రం. పదద్వయమస్తి, ఉత్తరపదే ఇత్యధికారః ఆనంగ్ ఇతి అనువర్తతే, ఇహ ఉత్తరపదే పరే ఆనంగ్. దేవతాద్వంద్వే వెన్ వి ఆర్ కంబైనింగ్ నేమ్స్ ఆఫ్ టూ దేవతాస్, ఉత్తర పదే పరే వెన్ ఫాలోడ్ బై ద ఉత్తర పద దేర్ ఇస్ ఆనంగ్. మిత్రా వరుణౌ, మిత్రశ్చ వరుణశ్చ ఇతి విగ్రహః. సో మిత్ర శబ్దస్య ఆనంగ్ భవతి, మిత్రా వరుణౌ ఇతి భవతి. వాయు శబ్ద ప్రయోగే ప్రతిషేధః ఇతి వార్తికం. సో ఇఫ్ ఇట్ ఇస్ వాయు శబ్ద దెన్ దేర్ ఇస్ నో ఆనంగ్. సో అగ్నిశ్చ వాయుశ్చ తిష్ఠతే, అగ్నివాయు అథవా వాయువగ్ని. యు కెన్ హావ్ బోత్ బికాస్ బోత్ ఆఫ్ దెమ్ హావ్ ఘిసంయ. వి కెన్ హావ్ బోత్ వేస్. సో ఇన్ ఈదర్ కేస్ వెన్ యూర్ యూజింగ్ ద వర్డ్ వాయు దెర్ ఇస్ నో ఆనంగ్. ఇట్ హస్ నాట్ బికమ్ అగ్నావాయు, ఇట్ ఇస్ అగ్నివాయు. పునర్ద్వంద్వ గ్రహణం ప్రసిద్ధ సాహచర్యస్య పరిగ్రహార్థం. దేవతా ద్వంద్వే చ ఇత్యుచ్యతే, కిమర్థం దేవతయోః ఇత్యుక్తే అలం. సిన్స్ యూర్ ఆల్రెడీ గెటింగ్ ద్వంద్వ యాజ్ దిస్ ఆనంగృతో ద్వంద్వే ఇత్యతః ఏవ ద్వంద్వే ఇత్యను వర్తతే. పునః దేవతా ద్వంద్వే ఇతి కిమర్థం పృష్టే, పునః ద్వంద్వ గ్రహణం ప్రసిద్ధ సాహచర్యస్య పరిగ్రహార్థం. ప్రసిద్ధ సాహచర్య, వేర్ సాహచర్య ఇస్ ఫేమస్, దట్ ఇస్ ఇట్ ఇస్ టోల్డ్ ఇన్ ద వేద, ఇన్ ద వేదస్ దోస్ టూ డైటీస్ హావ్ బీన్ టేకన్ టుగెదర్. సో తత్రైవ ఆనంగ్ భవతి, తేన బ్రహ్మ ప్రజాపతి ఇత్యాదౌ న ఆనంగ్. బ్రహ్మ చ ప్రజాపతిశ్చ ఇతి స్థితే, ఈవెన్ దో ఇట్ ఇస్ ఎ దేవతా ద్వంద్వ, దెర్ ఇస్ నో ఆనంగ్. వై? బికాస్ దోస్ టూ హావ్ నాట్ బీన్ టోల్డ్ యాజ్ ಏಕಃ ವಿರ್ಭಾಗ ಏತದ್ಹಿ ನ ಏಕಃ ವಿರ್ಭಾಗಿತ್ವೇನ ಶ್ರುತಂ. ವಾಟ್ ಇಸ್ ಸಾಹಚರ್ಯ ಇನ್ ದ ವೇದಸ್? ದ ಟೂ ಗಾಡ್ಸ್ ಆರ್ ಮೆನ್ಷನ್ ಟುಗೆದರ್ ಆಸ್ ಪಾರ್ಟೇಕಿಂಗ್ ಅ ಸೇಮ್ ಹವಿಶ್. ಓಕೆ, ಸೊ ಸಚ್ ಥಿಂಗ್ ಇಸ್ ನಾಟ್ ಟೋಲ್ಡ್ ಫಾರ್ ಬ್ರಹ್ಮ ಅಂಡ್ ಪ್ರಜಾಪತಿ, ದೇರ್ ಫೋರ್ ದರ್ ಇಸ್ ನೋ ಆನಂದ್. ಪ್ರಸಿದ್ಧ ಸಾಹಚರ್ಯಂ ನಾಸ್ತಿ. ಏತದ್ಹಿ ನ ಏಕಹವಿರ್ಭಾಗಿತ್ವೇನ ಶ್ರುತಂ ನಾಪಿ ಲೋಕೆ ಪ್ರಸಿದ್ಧಂ ಸಾಹಚರ್ಯಂ. ಅತಃ ಅತ್ರ ಆನಂದ್ ನ ಭವತಿ. ಈ ದಗ್ನೇಹ ಸೋಮವರುಣಯೋಃ ಇತಿ ಅಗ್ರಿಮಂ ಸೂತ್ರಂ. ತ್ರೀಣಿ ಪದಾನಿ ಸಂತಿ ಈತ್ ಅಗ್ನೇಹ ಸೋಮವರುಣಯೋಃ ಇತಿ. ಅಲು ಉತ್ತರ ಪದೇ ಇತ್ಯತಃ ಉತ್ತರ ಪದೇ ಇತಿ ಅಧಿಕ್ರಿಯತೆ. ದೇವತಾದ್ವಂದ್ವೇ ಇತ್ಯೇವ ದೇವತಾದ್ವಂದ್ವೇ ಇತ್ಯಪಿ ಅನುವರ್ತತೆ. ಕೋರ್ಥಃ ಸೋಮಶಬ್ದೇ ವರುಣಶಬ್ದೇ ಚ ಉತ್ತರ ಪದೇ ಪರೇ ಉತ್ತರ ಪದಾಧಿಕಾರಃ. ಸೊ ವೆನ್ ಫಾಲೋಡ್ ಬೈ ಸೋಮ ಅಂಡ್ ವರುಣ ಆಸ್ ದ ಉತ್ತರ ಪದ, ಅಗ್ನೇಹ ಈದಾದೇಶ ಸ್ಯಾತ್. ದ ವರ್ಡ್ ಅಗ್ನಿ ವಿಲ್ ಗೆಟ್ ಈತ್ ಆಸ್ ದ ಆದೇಶ. ಇಟ್ ಶುಡ್ ಆಕ್ಚುಲಿ ಹ್ಯಾವ್ ಗಾಟ್ ಆನಂದ್. ಓಕೆ, ಇಟ್ ವುಡ್ ಹ್ಯಾವ್ ಬಿಕಮ್ ಅಗ್ನ. ಸೊ ಪ್ರಿವೆಂಟಿಂಗ್ ದಟ್ ಇಟ್ ಗೆಟ್ಸ್ ಈತ್, ವಿಚ್ ಮೀನ್ಸ್ ಅಗ್ನಿ ಇತಿ ಭವತಿ ದೇವತಾದ್ವಂದ್ವೇ ಇತ್ಯರ್ಥಃ. ಅಗ್ನಿಶ್ಚ ಸೋಮಶ್ಚ ಅಗ್ನೀ ಸೋಮ ಇತಿ ಭವತಿ ಏವಂ ಅಗ್ನಿಶ್ಚ ವರುಣಶ್ಚ ಇತಿ ಸ್ಥಿತೆ ಅಗ್ನೀ ವರುಣ ಇತಿ. ತತ್ರ ಅನ್ಯದಪಿ ವಿಶಿಷ್ಟಂ ಕಾರ್ಯಮಸ್ತಿ ಅಗ್ನೇಃ ಸ್ತುತ್ ಸ್ತೋಮ ಸೋಮಾಃ ಇತಿ ಸೂತ್ರಂ. ಪದದ್ವಯಮಸ್ತಿ ಅಗ್ನೇಃ ಇತಿ ಏಕಂ ಪದಂ ಸ್ತುತ್ ಸ್ತೋಮ ಸೋಮಾಃ ಇತಿ ಅಪರಂ ಪದಂ. ಪದಾಂತಸ್ಯ ಮೂರ್ಧನ್ಯಃ ಇತ್ಯಧಿಕ್ರಿಯತೆ. ಸಮಾಸೇಂಗುಲೇ ಸಂಘಃ ಇತ್ಯತಃ ಸಮಾಸೇ ಇತ್ಯಸ್ತಿ. ಅಗ್ನೇಃ ಪರೇಷಾಂ ಏಷಾಂ ಸಸ್ಯ ಶಃ ಸ್ಯಾತ್ ಸಮಾಸೇ. ದ ಸಕಾರ ಇಸ್ ರಿಪ್ಲೇಸ್ಡ್ ಬೈ ಷಕಾರ. ಸ್ತುತ್ ಸ್ತೋಮ ಅಂಡ್ ಸೋಮ, ಫಾರ್ ದೀಸ್ ತ್ರೀ ದ ಸಕಾರ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ಷಕಾರ ವೆನ್ ಪ್ರಿಸೀಡೆಡ್ ಬೈ ದ ವರ್ಡ್ ಅಗ್ನಿ. ಅಗ್ನಿಷ್ಟ ಅಗ್ನೇಹ ಸ್ತುತು ಇತಿ ಅಗ್ನಿಷ್ಟೋಮಃ ಅಂಡ್ ಅಗ್ನಿಶೋಮೌ. ಅಗ್ನಿಶ್ಚ ಸೋಮಶ್ಚ ಇತಿ ಸ್ಥಿತೆ ಈದಗ್ನೇಹ ಸೋಮವರ್ಣಯೋ ಇತ್ಯನೇನ ಈದಾದೇಶ ಭವತಿ ಅಗ್ನಿ ಸೋಮ ಇತಿ. ಇದಾನೀಂ ಅನೇನ ಸೂತ್ರೇಣ ಅಗ್ನೇಹ ಸ್ತುತ್ ಸ್ತೋಮ ಸೋಮಃ ಇತ್ಯನೇನ ಷತ್ವಂ ಭವತಿ ಅಗ್ನಿಶೋಮೌ. ಅಗ್ನೀವರುಣವು ಪುರತನ ಸೂತ್ರಸ್ಯ ಉದಾಹರಣ ಅಗ್ನಿಶ್ಚ ವರುಣಶ್ಚ ಅಗ್ನೀವರುಣವು. ಇದ್ ವೃದ್ಧವು, ಅಗೇನ್ ದಿಸ್ ಇಸ್ ಕನೆಕ್ಟೆಡ್ ಟು ದ ಪ್ರೀವಿಯಸ್ ಒನ್. ಪದದ್ವಯಮಸ್ತಿ ಇತ್ ವೃದ್ಧವು, ಸೊ ದಿಸ್ ಇಸ್ ಅನ್ ಎಕ್ಸೆಪ್ಷನ್ ಟು ದ ಈತ್. ಉತ್ತರ ಪದೇ ಇತ್ಯಧಿಕ್ರಿಯತೆ ದೇವತಾದ್ವಂದ್ವೇತಿ ಈದಗ್ನೇಹ ಇತ್ಯತಃ ಅಗ್ನೇಹ ಇತ್ಯಪಿ ಅನುವರ್ತತೆ. ವೃದ್ಧಿಮತಿ ಉತ್ತರ ಪದೇ ವೆನ್ ಫಾಲೋಡ್ ಬೈ ಎನ್ ಉತ್ತರ ಪದ ವಿಚ್ ಹ್ಯಾಸ್ ವೃದ್ಧಿ, ವೃದ್ಧಿ ಇಸ್ ಯು ನೋ ವೃದ್ಧಿರಾದೈ ಚಿತ್ತನೇನ ವೃದ್ಧಿ ಅತ್ರ ಅಸ್ತಿ. ತತ್ರ ಅಗ್ನೇಹ ಇದಾದೇಶ ಸ್ಯಾತ್. ಇಟ್ ಓವರ್ ರೂಲ್ಸ್ ಬೋತ್ ಆನಂಗ್ ಅಂಡ್ ಈತ್. ಸೊ ನನ್ ಆಫ್ ಇಟ್ ವಿಲ್ ಬಿ ದೇರ್, ದ ಅಗ್ನಿ ವಿಲ್ ರಿಮೈನ್ ಅಸ್ ಅಗ್ನಿ. ನಾಟ್ ಇಟ್ ಮೀನ್ಸ್ ಇತ್ ಮೀನ್ಸ್ ಹಸ್ವೈಕಾರ ರಿಪ್ಲೇಸಿಂಗ್ ಹಸ್ವೈಕಾರ ಮೀನ್ಸ್ ದ ಇಕಾರ ರಿಮೈನ್ ಇಟ್ ಇಸ್ ಹರ್ಡ್. ಇದಾದೇಶ ಸ್ಯಾತ್ ದೇವತಾ ದ್ವಂದ್ವೇ. ಅಗ್ನಾ ಮರುತೌ ದೇವತಾ ಅಗ್ನಿ ಮಾರುತಂ ಕರ್ಮ. ಸೊ ವಾಟ್ ಇಸ್ ಹ್ಯಾಪನಿಂಗ್ ಹಿಯರ್, ದೇರ್ ಇಸ್ ಅ ತದ್ಧಿತ ಇನ್ ಬಿಟ್ವೀನ್. ಓಕೆ, ಸೊ ಅಗ್ನಿಶ್ಚ ಮರುತಶ್ಚ, ಫಸ್ಟ್ ವಿ ಹ್ಯಾವ್ ಅಗ್ನಿಶ್ಚ ಮರುತಶ್ಚ. ಓಕೆ, ತತ್ರ ಕಿಂ ಭವತಿ ಆನಂಗ್ ಋತೋದ್ವ ದೇವತಾದ್ವಂದ್ವೇ ಚೈತ್ಯನೇನ ಆನಂಗ್ ಭವತಿ ಅಗ್ನಾಮರುತೌ ಭವತಿ. ಅಗ್ನಾಮರುತೌ ದೇವತೆ ಯಸ್ಯ ಇತಿ ಅಣ್ ಪ್ರತ್ಯಯ ತದ್ಧಿತ ಪ್ರತ್ಯಯ. ತತ್ರ ಅಗ್ನಾಮರುತ ಇತ್ಯಸ್ಮಾತ್ ಅಣ್ ಪ್ರತ್ಯಯ ದೇವತಾದ್ವಂದ್ವೇ ಚ ಇತ್ಯನೇನ ಉಭಯ ಪದ ವೃದ್ಧಿ ಭವತಿ. ಬೋತ್ ದ ಫಸ್ಟ್ ಅಂಡ್ ದ ಸೆಕೆಂಡ್ ವರ್ಡ್ ವಿಲ್ ಗೆಟ್ ವೃದ್ಧಿ. ಸೊ ಇಟ್ ಬಿಕಮ್ಸ್ ಅಗ್ನಿ ಅಂಡ್ ಮಾರುತ. ನೌ ದ ವರ್ಡ್ ಇಸ್ ದೇರ್ ಇಸ್ ಇದಾದೇಶ, ಸೊ ಇಟ್ ಬಿಕಮ್ಸ್ ಅಗ್ನಿ ಮಾರುತಂ. ಫ್ರಮ್ ಅಗ್ನಾ ಮಾರುತೌ ಇಟ್ ಬಿಕಮ್ಸ್ ಅಗ್ನಿ ಮಾರುತಂ. ಅಗ್ನಿವರುಣೌ ದೇವತೆ ಅಸ್ಯ ಇತ್ಯತ್ರಾಪಿ ಅಗ್ನಿವರುಣಂ. ಸೊ ಬೋತ್ since the varuna is vritti, you are getting it as the adesha, so it becomes agni varunam. Devata dvandvecha iti ubhaya pada vrittihi. So generally in tadhitas we have adi pada vritti, but because it's a devata dvandva we have ubhaya pada vritti. Because there is vritti, there is it as the adesha for agni. अलौकिके विद्रह वाक्ये आनंगम इत्वंच बाधित्वा इत. So here you don't first do आनंग and then or eat and then replace it with it. Instead of आनंग and eat, we just do it because we know that there is going to be a तद्धिता. The तद्धिता and the वृद्धि will actually come later. But since we know that there is going to be a वृद्धि, initially itself we do not do either anang or eat, we simply do it, so it becomes agni itself. Vruddhau kim? Vruddhimati uttarapade eva itvam agnendraha. Agnindrau devate asya iti vigrahe nendrasya parasya ityanena uttarapada vruddhi pratishethaha. The Uttarapada will not get vritti. That is, Indra will not get vritti. So it is Agni and Indra. So in this case, there is no vritti. Therefore, there is no it. Instead, there is Anang by Devatadvandvecha. So therefore, there is Agna. Agna Indra becomes Agnendraha. विष्णु न आज्ञा वैष्णवम. विष्णु शब्दे परे इत्वम न भवति तदभावे आनं आज्ञा वैष्णवम. उदयम सूत्रमस्ति दिवोद्यावा दिवः द्यावा इति पदद्वयम् उत्तरपदाधिकारः देवता द्वन्द्वे इत्यपि अनुवर्तते. Devatadvandve uttarapade. So in a devatadvandva, when followed by an uttarapada, the word divu is replaced by dhyava. Divu means the earth. So dhyava bhumi. Sorry, divu means the sky. So divu bhumi is sthite. Both of these are gods in the Vedas. So divu ityasya sthane dhyava ityadeshe dhyava bhumi. Dhyava prithivi. Iti bahu prasiddham. Dhyava kshama. Kshama again means the earth. So dhyava kshama. Uhetra divu ityasya sthane dhyava ityadeshaha krutaha. Divasascha prithivyam. So when followed by the word prithivi, the previous case it meant prithivi, but it is a different word. It is either bhumi or kshama. So prithivi shabde pare divasaha cha. अर्थात दिवस इति आदेशः अपि भवति. द्यावा इति तु अस्ति, दिवसः च, अतः दिवः इत्येव चात् द्यावा. दिवः स्थाने दिवस इति आदेशः भवति, द्यावा इत्यपि आदेशः भवति. टु आदेशस् व्हेन फॉलोड बाय पृथ्वी. आदेशे अकारोच्चारणं सकारस्य रुत्वं मा भूत् इत्येतदर्थम्. इन दिवस आदेश इज एक्चुअली दिवस. Why is there the akara? It is to prevent rutva for sakara. If there is sakara at the end of a word, sasajushoruhu ityanena rutvam bhavati. Rutvam badhitum adeshe akarasya uccharanam kritam. Dhagim bhavati dyauscha prithivicha. Divas prithivyau. Actually when followed by divas, since it is sakara anta, there should have been rutva, visarga and an upadhvaniya. Since the adesha has been told as divasa with an akara, the sakara will not get rutva. Divas prithivyau iti pakshe dhyava prithivyau ityapi rupam. Chandasi drishtanu vidhihi. This is a general rule which is found everywhere. In the Vedas, drishtanu vidhihi. What is seen will be justified. You cannot apply, you cannot first take a sutra and say that a Vedic prayoga is wrong. What we do in Laukika prayoga is, we check with the sutra. If that form is possible, we say it is sadhu. If it is not possible, we say it is asadhu. But in Veda, we do not say any prayoga is asadhu. Vede sarvevi prayogaha sadhavaha. Drishtanu vidhihi. Prayogam drishtva tadanugunam vyakhyanam kartavyam. Prayogasya doshaha na udbhavyate vede. Sandasi drishtanu vidhihi. Dhyava chitasmai prithivi. Atra dhyava ityadeshaha krutaha. Prithivi shabdaha agre asti. It is not immediately followed by prithivi, but still we find the dhyava adesha. Because it is a Vedic prayoga, we have to substantiate it. There is no sutra which can give this, but still vaidikatvat sadhu. And there is one more thing, Dikshitarme, divas prithivyor, prithivyor aratihi ityata, padakaraha visargam pathanti. Padakaraha. As we told last time, there is Samhita, Pada and Krama. Samhita Pancha is where the mantras are told as a Samhita together. Whereas Pada Pancha is where each word is split. Each word, that is even in a Samasa, each word will be split and told. Okay? If you have heard Pada Pancha, you will know everything. If you say there is Ramakrishna, they will say Rama, Krishna, Ramakrishna. So they will show each separate word. There, he says, padakaraha visargam pathanti, divas and prithivi. They have to separate the two words. There, they separate it as divaha and prithivi. Tad asadhu is what Dikshitar means to say. Because he already said, because it is a divasa adesha akara, it prevents rutva. If there is no rutva, there cannot be visarga. So it should actually be split as divas and prithivi. Padakaraha visargam pathanti na sadhu iti bhavaha. Sakshat nochete, but Dikshita does not agree with that visarga. Agrimam sutramasti ushasvoshasaha. Ushasa ushasaha iti chedaha. Devata dvandve iti anuvartate uttarapade iti adhikaraha. Ushas shabdasya. Ushasa iti adeshaha bhavati devata dvandve. So ushas is replaced by ushasa. Ushasa suryam. Ushashta suryashta. So combining ushas and surya in a samasa, ushas is replaced by ushasa. So it becomes ushasa suryam. Matara pitara unicham. Padadvayam asti matara pitara udicham. Udicham mate matara pitara viti bhavati ityartha. So you should say, see that one of the special features of Ashtadhyayi is, he marks dialectical variations. So they were prevalent even at that time. He says, according to East, or in the Eastern regions, it is spoken like this. In the North, it is spoken like this. In the West, it is spoken like this. So he makes clear distinctions between the language as spoken in the North or the East, specific places. So he says, Udicham. Udicham nama, the northerners, in the northern country, matara pitarau iti upayujyate. Actually the form is mata pitarau, right? Mata cha pita cha iti dvandve, matru pitru iti sthate, anangrato dvandve itarena anangadesha. Ataha mata pitarau iti bhavati. Into udicham mate, matara pitarau ityapi bhavati. Katham matara pitarau, matru shabdasya arangadesha nipatyate. So matru is replaced by arang as the adesha. So it becomes matara and pitarau. So sopi prayoga asti. Udicham kim. Udicham bhashayam eva matara pitarau iti bhavati. Anyatha mata pitarau iti prayoga asteva. Arangaha bhave anangrato dvandve ityanena anang bhavati. So etavat paryantam, we studied the samasashraya karya, the karyas which depend on samasa, which is dvandva samasa. Idanim dvandva samase samasantaha, samasanta pratyayas in case of dvandva. Dvandvat chu dashantat samahare iti sutram. So in a samahara which ends in chu. Chu is chavarga, da is dakara, sha is shakara, and ha is hakara. So ending in any of these letters, if there is samahara, then we have the samasanta tach ராஜா சதிபியஷ்டச் இத்யதஹ டச் இதி அனுவர்த்ததே. சோ சவர்காந்தாத் தஷஹாந்தாத் ச த்வந்த்வாத் தத் ஸ்யாத் சமாஹாரே. வாக் ச த்வக் ச, வாக் அண்ட் த்வக். சோ வாக் த்வச் இத்யஸ்தி, டச் சமாஸாந்தே வாக் த்வச்சம் இதி பவதி. திஸ் இஸ் சகாராந்த, த்வச் இஸ் சகாராந்த சப்த. த்வக் ஸ்ரஜம், த்வக் ச ஸ்ரக் ச. சோ த்வக் இதி சகாராந்தம், ஸ்ரஜ் இதி ஜகாராந்தம். ஓகே, சோ சின்ஸ் இட் இஸ் ஜகாராந்த தேர் இஸ் டச். சோ வாக் ஸ்ரஜம் இதி பவதி. ஷமீ த்ருஷதம், ஷமீ ச த்ருஷத் ச அனயோ சமாஹாரஹ. சோ இன் திஸ் கேஸ் தேர் இஸ் again touch, drishat is dakaranta, so there is touch to form shami drishadam. Vak tvisham, so this is shakaranta. He is giving an example for each. Chu da sha, vak cha twit cha, twit iti shakaranta, tvish iti tatra tachikrate vak tvisham iti akaranta bhavati. Chatropanaham, chatrancha உபானஷ்ச, உபானத்து இஸ் த பாதரக்ஷா, தட் இஸ் ஸ்லிப்பர்ஸ், சத்ர இஸ் த அம்பிரலா. சோ சத்ரோபானஹம் அகாராந்தஸ்ய தத் சமாசாந்தஹ பவதி சத்ரோபானஹம். சமாஹாரே கிம், சமாஹாரே ஏவ அயம் சமாசாந்தஹ. ப்ராவ்ருச்சததௌ, சோ ப்ராவ்ருச்ச ஷரச்ச டு ருதுஸ், ப்ராவ்ருட் இஸ் வர்ஷா அண்ட் தர் இஸ் ஷரத். சுஷரத் இதி தகாராந்தஹ, சமாஹாரஹ ந இத்யதஹ அத்ர டச் ந பவதி ப்ராவ்ருட் ஷரதௌ, ஷரத் ஔ ஷரதௌ இத்யேவ. ஓகே, சோ தட் இஸ் த ஒன்லி சூத்ர இன் த்வந்த சமாஸ ஃபார் சமாசாந்த த்வந்த்வாச்ச தஷஹாந்தாத் சமாஹாரே. சோ கமிங் டு த ரீகேப், இஃப் வி ஆர் டு ஆன்சர் அ க்வெஸ்சன் ஹோலி ஆன் த்வந்த்வ, ஃபர்ஸ்ட் இஸ் த த்வந்த சமாஸ விதான, द्वंद्वे पूर्व निपात नियमः, समाहार द्वंद्व नियमः, द्वंद्व समास आश्रित कार्याणि एंड द्वंद्वे समासान्ताः. सो अंडर फाइव सब हेडिंग्स यू हैव टू आंसर, सो सम ऑफ देम आर मोर इंपॉर्टेंट देन द अदर. ओके, सो देयर एंड्स द द्वंद्व समास प्रकरण. द नेक्स्ट प्रकरण इन समास इज द एकशेष प्रकरण. ओके, so there is generally a confusion that ekashesha is a dvandva. Some people even say ekashesha dvandvah, but it's all wrong. Ekashesha is not dvandva, it is not a samasa at all. Ekashesha is not a samasa. So true, Dikshitar has included it under the samasa prakarana, but it is not a samasa. Ekashesha, only one of the words remains, that is ekashesha. In samasa, like samasa, it is also where two or more words combine. But the difference is, in samasa both words are heard, whereas in ekashesha only one word remains. That is called ekashesha. Okay. So, ekashesha adhikara is a short adhikara at the end of the second pada of the first chapter, 1264 to 1273. Around 10 sutras, Panini tells ekashesha. So, all those sutras will be studied under this prakarana. The first of them is sarupanam ekasheshah ekavibhaktau. So ekavibhaktau yani sarupanyeva drishtani tesham ekayeva shishyate. So we'll see ekashesha in the next class. So I had prepared for complete ekashesha in this class, but I have to go somewhere early today. So we will do this in the next class. We'll do this and probably do the next prakarana also. Any questions regarding Dvandva or anything before that? No questions. Okay, so we'll stop here.
पद्मनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं रच्यते।